इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य सायंकाले नवदिल्लीनगरे ज्ञानभारतमित्यस्मिन् विषये अन्ताराष्ट्रिय सम्मेलने भागं गृहीष्यति। सः पाण्डुलिप्याः अंकीकरणं संरक्षणं जनपरिवेषणञ्च त्वरितरूपेण कर्तुं समर्पितं ज्ञानभारतं पोर्टल इति डिजिटल मञ्चम् अपि प्रारभते। अथ अस्मिन् अवसरे सभाञ्च सम्बोधयिष्यति। अवधेयं यत् पाण्डुलिपि परम्परायाः माध्यमेन भारतस्य ज्ञानपरम्परायाः पुनः प्राप्तिः इत्यस्मिन् विषये ह्यः एव त्रिदिवसीय सम्मेलनस्य आरम्भः अभवत्। सम्मेलनमाध्यमेन भारतस्य अप्रतिम पाण्डुलिपि सम्पदः पुनः सम्पुष्टीकरणस्य मार्गेषु विचारं कर्तुं वैश्विक ज्ञानसंवादस्य हृदये स्थापयितुञ्च प्रमुख विद्वांसः संरक्षणविदः प्रौद्योगिकीविदः नीतिविशेषज्ञाः च एकत्र आगतास्सन्ति। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना उत्तराखण्डस्य कृते द्वादशशतकोटिरूप्यकाणां वित्तीय सहायतायाः घोषणा कृता। ह्यः देहरादून नगरे उच्चस्तरीय सभायाः अध्यक्षतां कृत्वा श्रीमोदी राज्यस्य आपदा प्रभावित क्षेत्रेषु परिहार पुनर्वास प्रयासानां समीक्षां कृतवान्। मृतानां परिवाराणां च कृते 2,00,000 रूप्यकाणाम् अनुग्रह राशिः, गभीररूपेण आहतानां च कृते 50,000 रूप्यकाणां च अनुग्रह राशिः अपि घोषितः। प्रधानमन्त्रिणा आपदा प्रभावित प्रदेशानाम् अथ तत्रस्थ जनानां च सहायार्थं बहु आयामीय पद्धतेः आवश्यकतायाः उपरि बलं दत्तम्। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना मारिशस् देशस्य कृते तद्देशस्य आधारभूत संरचनानां सुदृढीकरणाय, उद्योग अवसराणां सर्जनाय, स्वास्थ्य सेवा सुविधानां वर्धनाय च उद्देशितस्य विशेष आर्थिक राशेः उद्घोषणा कृता। अवधेयं यत् उत्तरप्रदेशस्य वाराणसीनगरे मारिशस् देशस्य समकक्षेन नवीन चन्द्र रामगुलाम इत्यनेन सह व्यापक द्विपक्षीय वार्तां कृत्वा संयुक्त पत्रकार समारोहे एतदुक्तवान्। श्रीमोदी उक्तवान् यत् एषः उपक्रमः सहायतारूपेण नास्ति, अपितु आवयोः देशयोः सहभागी भविष्यस्य निवेशः वर्तते।
आज हमने मॉरिशस की आवश्यकताओं और प्राथमिकताओं को ध्यान में रखते हुए एक स्पेशल इकोनॉमिक पैकेज पर निर्णय लिया है। यह इंफ्रास्ट्रक्चर मजबूत करेगा, रोजगार के नए अवसर पैदा करेगा और स्वास्थ्य सुविधाओं को सुदृढ़ करेगा। दिस पैकेज इज नॉट एन असिस्टेंस, इट इज एन इन्वेस्टमेंट इन अवर शेयर्ड फ्यूचर। पिछले साल मॉरिशस में यूपीआई और रूपे कार्ड की शुरुआत हुई। अब हम लोकल करेंसी में व्यापार को सक्षम करने की दिशा में काम करेंगे।
द्वयोः नायकयोः वार्तायाः अनन्तरं भारतेन मारिशसेन च विज्ञानं, प्रौद्योगिकी, समुद्रविज्ञानं, प्राशासनिक प्रशिक्षणं, दूरमापनञ्च इत्येतेषु क्षेत्रेषु चत्वारि सन्धिपत्राणि हस्ताक्षरितानि। भारतीय समुद्री सुरक्षायाः वर्धनाय महत्वपूर्ण सोपानरूपेण भारतीय नौसेना अद्य गुरुग्रामे INS अरावली इत्यस्य आरम्भं करिष्यति। रक्षामन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् नौसेनायाः सूचना संचार संरचनानां सुदृढीकरणाय अरावली पर्वतशृंखलायाः नामधेयेन INS अरावली इति निर्मितम् अस्ति। नौसेनाप्रमुखः एडमिरल दिनेश के त्रिपाठी समारोहस्य अध्यक्षतां करिष्यति। केन्द्रीय नवीन तथा नवीकरणीय ऊर्जा मन्त्रिणा श्रीप्रह्लाद जोशिना ह्यः नवदिल्लीनगरे नवीन नवीकरणीय ऊर्जा मन्त्रालयेन आयोजितस्य प्रथम वार्षिकस्य हरित हैड्रोजन अनुसन्धान विकास सम्मेलनस्य उद्घाटनं कृतम्। अस्मिन् अवसरे जोशी महोदयेन हैड्रोजन नवीकरणे स्टार्टअप संस्थानां समर्थनार्थं 100 कोटिरूप्यकाणां नूतनं कॉल फॉर प्रपोजल्स इति प्रस्तावः प्रारब्धः। इयं योजना अभिनव हैड्रोजन उत्पादन भण्डारण परिवहन उपयोग प्रौद्योगिकीषु प्रायोगिक परियोजनानां कृते प्रति परियोजनाय 5 कोटिरूप्यकाणि यावत् प्रदास्यति। भारतस्य ऋतुविज्ञान विभागेन आगामिषु 4-5 दिवसेषु प्रायद्वीपीय भारतस्य उपरि अत्यधिक वृष्टेः पूर्वानुमानं कृतम् अस्ति। इति वार्ताः।